अमन्दान् स्तोमान् प्रभरे मदेशा सिन्धामधिक्षिजतो भाव्यस्य यो मे सहस्रममिमेत सवा नतोर्तो राजाश्रम इच्छमानः शतम् राज्ञो नाधमानस्य निष्काञ्छतमश्वान् प्रजतान् सद्य आदम् शतम् कक्षीवाम् असुरस्य गोनाम् दिविश्रभोजरमाततान उपमाश्यवास्वनजेन दत्ता वधोमन्तो दशरथासो अस्थः षष्टिः सहस्रमनुगव्यमागात्सनत्कक्षीवाम् अभिपित्वे अह्नाम् चत्वारिंशद् दशरथस्य षोडाः सहस्रस्याग्रे श्रेणिन् नयन्ति मदच्युतः कृशनावतो अद्यान् कक्षीवन्त उदमृक्षन्त भज्राः पूर्वामनुप्रजतिमाददे भस्त्रेन् युक्ताम् अष्टावरिधाय सोगाः सुबन्धभोजे विश्या इवव्रा अनस्वन्दश्रव ऐषन्द भज्राः आगधिता परिगधिता जाकशीके भजङ्गहे ददाति मह्यञ्जादुरीजाशोनाम् भोज्या शता उपोपमे परा मृषमा मे दभ्राणि मन्यथाः सर्वाहमस्मि रोमशा गन्धारीणामिवाबिका